समासाद्य च लक्ष्मीवान् लङ्कां रावणपालितां परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृतां सीतापहरणार्थेन रावणेन सुरक्षितां समन्ताद्विजरद्भिश्च राक्षसैरुग्रधन्विभिः काञ्चनेनावृतां रम्यां प्राकारेण महापुरीं गृहैः स ग्रहसङ्कासैः शारदाम्बुदसन्निभैः पाण्डुराभिप्रतोळीभिरुच्चाभिरविसंवृताम् अट्टालकशताकीर्णां पताकाध्वजमालिनीं तोरणैः काञ्चनैर्दिव्यैर्लता पङ्क्तिविचित्रितैः ददर्श हनुमान् लङ्कां दिवि देवपुरीमिव।